also I'm going to share my screen. First of all, we will see actual today's part for prayer. म्यूट मध्ये तिष्ठतु सुशीला भगिनी कृपया म्यूट मध्ये तिष्ठतु थैंक यू इंदु भगिनी कृपया प्रार्थनां वदतु
शुक्लं भर्तरं विष्णु शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्त्रये
उत्तमं भगिनि अनन्तरं सुशीला भगिनि ध्येयमन्त्रस्य प्रथमं श्लोकं वदतु
पठामि संस्कृतनित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्
अस्तु उत्तमं शीला भगिनी वदतु शीला भगिनी अस्ति वा कन् यू हियर् मी सूक्ष्मा भगिनी कृपया वदतु
नमस्ते भगिनि
संस्कृतस्य
प्रसाराय अयं सर्वं ददामि संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम्
उत्तमम् शीला भगिनी वदतु अधुना शीला भगिनी
भगिनी संस्कृतं सदा वक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुते मन्ये वन्दे संस्कृतमातरम्
अस्तु जीन् महोदय वदतु
हिन्दुधर्मं समजं च पवित्रं संस्कृतिं तथा संरक्ष्य ननु कुर्यं विश्वं शन्ति समन्वितम्
उत्तमं कुर्याम अधुना गृहपाठं पठामः सन्धिं विघटयत अथवा सन्धिं कुरुत नाम किं सन्धिं विघटयत
धन्यवाद
सन्धिं विघटयत अथवा सन्धिं कुरुत नाम किम् कोऽपि वदतु
टु स्प्लिट् द सन्धीस् जायिन्
देम् सन्धि विग्रहं कुरुत नाम सन्धिं विघटयत विग्रह करणीयमस्ति अनन्तरं सन्धिं कुरुत नाम मेक् सन्धि सो फर्स्ट वन् सेकेण्ड् वन् थर्ड् फोर्थ् अदर् एक्साम्पल् आफ् सन्धिं विघटयत् एण्ड् फिफ्थ् वन् इस् सन्धिं कुरुत तर्हि अधुना आशा भगिनी वदतु फर्स्ट् वन्
विज्ञानं योग अतीव
अतीव विज्ञानं योग अतीव उत्तमं दिव्या भगिनी वदतु दिव्या भगिनी श्रोतुं शक्नोति वा
भगिनी इस् इट् विज्ञान इस् वित् विसर्ग
विज्ञानम्
विज्ञानम्
देर् इस् नो विसर्ग वि हाव् टु स्प्लिट् ओन्लि देट् म
ओके
हा दिव्या भगिनी श्रुणोति वा श्रोतुं शक्नोति वा अस्तु इन्दु भगिनी वदतु इन्दु भगिनी अन्म्यूट् करोतु हलो केन् यू हियर् मी लक्ष्मी भगिनी
आं भगिनी
वदतु
इति योग अत्र
इति योग अत्र उत्तमं विच् सन्धि सन्धि रूल् इस् हियर्
गणसन्धि
यस् करेक्ट् गणसन्धि अस्तु सन्ध्या भगिनी वदतु थर्ड् वन्
आं भगिनी
Is there any message from Divya Bhagini? Four messages are there. Please tell me. Four messages are... one minute please, Sandhya Bhagini. Four messages are there. Can you please see and tell me?
Only Jyoti Bhagini said that her audio has some problem.
Okay,
but she says it is resolved now.
Okay, Jyoti Bhagini, okay.
Namo Namaha Bhagini.
Ha.
Namo Namaha.
Namo Namaha.
Namo Namaha. It's a bit late.
Yes, okay. One minute, please. Sandhya Bhagini Vadatu.
मानवहितायैव मानवहिताय योग एव
उत्तमं मानवहिताय योग एव हा दृव्या भगिनी अधुना वदतु फोर्थ् वन् एनि डौट् सन्ध्या भगिनी
नो ऐ सेड् वृद्धि सन्धीय भगिनी
यस् 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 वृद्धि सन्ति करेक्ट्
हा एतस्याभिः योग चिरजायत
न न सी देर्
एतस्
ऐ हेव् गिवन् त्री फिलप् देट् मीन्स् त्री वर्ड्स् आर् देर् फस्ट् वन् यू केन् गेस्
एतस्य योग अभिरुचिः योग अजायत
यस् करेक्ट् एतस्या अस्ति देट् मीन्स् एतस्य इस् वर्ड् यू वि नो नौ देन् अभिरुचिः बिकास् अ प्लस् अ इस् इक्वल् टु आ एण्ड् अभिरुचिः एण्ड् लास्ट् वीक् वी हेव् सीन् ऋत्वसन्धि सो र जायत देट् मीन्स् स्प्लिट् देट् र A is the vowel, so third word is ajayata.
Ajayata.
And khapra means visarga. सो एतस्य प्लस् अभिरुचिः प्लस् अजायत. उत्तमं. सञ्जीव महोदय.
इति प्लस् उपाधिन् इत्युपाधिन्.
यस् करेक्ट्. विच् सन्धि इस् देर्?
Going to Yan Sandhi?
Yes, E changes into Y. Uttam. Adhuna Yadyapi. Yeah, sorry. Iti Yadyapi. Sheila Bhagini, what is it?
You already gave the answer, Bhagini, Yadyapi.
So, tell me which rule is there.
Vridhi Sandhi?
No, Yan Sandhi. See, Yadi, E.
So,
and E converts into Y, Halanta, and it will complete with the help of A. So, Yadya, Y.
Oh, it's Y, okay.
E. यद्यपि. सूक्ष्मा भगिनी वदतु.
सारि भगिनी, ऐ हेड् अ ट्रबल् वित् मै वैफै.
अन्तर्जाल.
अद्य योग अहम्.
उत्तमम्. अद्य योग अहं. विच् रूल् इस् हियर्? विच् रूल् इस् प्रेसेण्ट् हियर्?
प्लस् अ इस् इक्वल् टु आ.
यस् करेक्ट्. अ प्लस् अ इस् इक्वल् टु आ. जीन् महोदय वदतु.
ऋग्वेदो ऋग्वेदो यजुर्वेदः ऋग्वेदः योग यजुर्वेदः.
उत्तमम्. उत्तमं. ऋग्वेदो यजुर्वेदः ऋग्वेदः प्लस् यजुर्वेदः. विच् रूल् इस् प्रेसेण्ट् हियर्?
विसर्ग मृदु व्यञ्जनम्.
हा, अविसर्ग मृदु व्यञ्जनम्. अविसर्ग मृदु
व्यञ्जनम्.
हा, ओकारः. ओकारः. ओकाररूपः. अस्तु. ज्योति भगिनी वदतु.
सामवेदः सर्ववेदः योग च योग इति. इन् फस्ट् सामवेदो अथर्व सामवेदः प्लस् अथर्ववेदः इट् इस् विसर्गसन्धि टर्निङ्ग् टु उकार मीन्स् पूर्वरूप दिस् वन् कम्स् सामवेदो अवग्रहसहित ओकार एण्ड् अथर्ववेदः प्लस् च. Here, before visarga, cha comes, where shakara comes, sha gets added. That is,
yes, yes, sattva, yes, correct.
Next sattva is cha plus, yeah, cha plus iti,
iti.
Cha iti, gunasandhi.
Yes, correct, correct. Next one.
Bhagini, I did not get that. Number
9. Samavedo Tharva Vedasche. Samavedo. After that, Avagraha is there. That means A is there. And if Avagraha is there, that means before Avagraha, which O is there, that is, we have to remove that okara and we have to put there visarga. So samvedaha utva utva sandhi avagraha sahitah okara rupah samvedaha plus atharva vedascheti vedascheti. See when sha take place of visarga when following letter is sha, then visarga changes into sha. That one, the half sha, half sha means visarga is there. So atharva vedaha plus cheti. Now cheti means cha plus iti, cha plus iti. In cha, a is present and a plus e is equal to a, and that's why che. This is guna sandhi. So samvedaha plus atharva vedaha plus cha plus iti. Clear?
Yes, Bhagini.
Balirvyasah.
Bhagini, Bhagini, one more question. That sha. How does sha changes to sha? Because it's cha, so it should go to the first sha.
Can you write it down, Bhagini?
Ha. Sanjeev Mahodaya, kripaya punar ekavaram vadatu.
So there is a vowel with visarga and then followed by cha. So that changes to sha as in shabri, sha.
Yes.
Correct. So then how does that change to... Okay, it's just written this way.
Yes.
Okay.
Yes.
Okay, thank you.
Yes, I will write here. Wait a minute. Samaveda, plus Veda, plus Cha, plus Shila Bhagini?
Yes, Bhagini. Yes.
No. Jyoti Bhagini? Was there? Or no? Sushila Bhagini? Whose turn is there? Jyoti Bhagini or Sushila Bhagini?
Balir Vyasah, Balihi Vyasah, Visarga Sandhi, where the comes.
Visarga Sandhi, Rutva Sandhi. Uttama. Punrekavaram.
Bhagini, is it Balihi? Bhagini? It is like Balihi plus Vyasah?
Yes. Yes, Balihi plus Vyasa. Indu Bhagini, vadato? Indu Bhagini?
Mama, Wi-Fi...
Karyam na karoti. Wi-Fi karyam na karoti. Aduna vadato, Parshuramascha.
Parshuram, Parshu Rama परशुरामः च विसर्गसन्धि अस्ति सकारः भवति आदेशः
So we will see our paragraph.
There are still
four more
remaining.
So Asha Bhagini, Sapta plus Ete.
Bhagini, which one? Sorry, I have to go out.
12th one.
Sapta Ete. Sapta plus Ete. Saptete. Saptaha plus Ete. I have written
that. No, Saptaha is not there.
Saptete. Saptaite. Saptaite.
Which letter is present at the end of first word?
A is there, plus A is equal to I. Plus A makes I. Saptaite.
Yes, correct. Saptaite. Uttama. Divya Bhagini.
Namastubhyam. Namaha plus yoga tubhyam.
Which tool is there?
Visarga sandhi. Sattvam.
Sattvam. Visargasya sattvam. Astu uttama. Lakshmi Bhagini vadatu.
Bhagini, can you repeat that one? 13. Namastubhyam.
Namaha plus tubhyam. Visargasya sattvam. Because of the visarga will change into sa. And sa is halanta, and that's why it is a.
Where is sa halanta, Bhagini? This half sa is a halanta, you mean?
Yes. Half the means halanta. Here, half sha. Halanta sha means half sha. Halanta sa means half sa. This ma halanta means half ma. You can't pronounce it namastubhyam. It is namastubhyam. Clear?
Yes, Bhagini.
Lakshmi Bhagini vadatu.
Bhagini, okay. I have a little problem with this. Okay, so I'm trying to say Pushtam Bhagini.
See, there are only two words. Two fill-ups are there.
Right.
See last word, last two letters.
Iva.
That means Eva is the second word and remaining part is the first word.
Stambha Eva.
Stambhaihi.
Stambhai.
See, ri. Split that ri.
Okay.
So half ra means visarga.
Okay. So
we have taken out Eva.
Okay.
So Eva. Half ra means visarga. Sustambhaihi.
Sustambha
means?
Stambha
means? Stambha.
Stambha.
Pillar.
Pillar. Yes, pillar. Pillar.
Yeah.
Sustambha. Good pillar.
So this is a good pillar. Is it Bhagini?
Yes. इव सुस्तम्भैः इव लैक् गुड् गुड् पिल्लर् लैक् गुड् पिल्लर्
सुस्तम्भः असुस्तम्भ
न न सुस्तम्भैः सुस्तम्भैः योग इव
ओके
No, Madhini, I was just trying to translate and I said, does it mean this is a good pillar?
Yes, yes. Sandhya Bhagini, Sandhya me ghata yato.
Okay. Bhagini. Mantri Bhagini Yoga Haryate.
Yes, correct. Which rule is that?
But, Rutvam Visarga Sandhi.
Yes, Rutvam. Mantri Bhihi. Visarga is there. Visarga changes into Ra because of Dha. Mrudu Vyanjana. Hmm? Mm.
Bhagini?
Ha.
Can you the third one trini sandhihi etasya etasya vigata yati manava hita eva
manava hita yaiva manava hita plus eva चतुर्थी विभक्ति मानव हिताय प्लस
एतस्य अभिरुचिः जायत एतस्य अभिरुचिः
अजायत
अजायत इत्युक्ते किं भगिनि
अजायत इस् एक्चुअलि
पास्टेन्स्
आफ् जनजा दिस् इस् फ्रोम् फोर्थ् कान्जुगेशन्
ओ
दिस् इस् पास्टेन्स् वि हेव् नाट् येट् सीन् वि हेव् सीन् शवतु एण्ड् स इन् प्लेस् आफ् पास्टेन्स्
Okay.
Because in spoken Sanskrit, we are using tavatu most of the time. And it is easy to use. And that's why in place of past tense, we are using tavatu.
But Bhagini, I didn't understand what jayata means.
Janaja means to nirmanam.
Bhagini, can you just the last one, can you just
last one
yes
mantri
bihi yoga and the second word
dhariyate this is the verbal form dhariyate dhru dhara or simply dhru is the basic root and dhariyate is actually passive voice
okay
So, that ra is dhru dhara, dhara, that ra is there, but...
Why the rudvam, why is it, yes, but...
See, yes, I will write and then the...
Why it's not ra dharyate, I don't get it.
मन्त्रिभिः प्लस् भार्यते.
विघटन
विनु मन्त्रिभिः. भिः मीन्स् तृतीया विभक्ति बहुवचन. And dhayate is the passive voice. And that's why Atmane Pada suffix is there. Dhudhara, and that's why it is dhara. And ya is the passive voice suffix. So we are using this dhariyate. We will see, I think we are going to see voices also in this book. So at that time we will do. So what is the question now?
No Are question, it's Dhanyavada.
It is clear now?
Dhanyavada.
Awesome. Now may we go further to see our paragraph?
Ambadim.
So, this is our short paragraph. Can anyone try to read this?
I can.
Yes, try.
Kasmincit vane dvau vrishabhau astam haritani shashpani kakshayanto tau param ushtim gachitam. तौ परस्परं सर्वधावास्तां सहैव चातिष्ठताम्. तस्मिन्नेव वने एका सिंहू अपि आसीत्. सा सदैवैतौ वृषभौ दृष्ट्वा चिन्तयति स्म, यद्यहमेतयो मांसं लभेत् तर्हि सुखं भवेत्, सानन्दं च मम कालं गच्छेत्. परं सिंहः एकमपि वृषभं मारयितुं समर्थः नासीत्, यतः तौ सदैव सहैव आसीत् तिष्ठतां. यदि कदाचित् सिंहः एकं प्रहर्तुं कामयेत् तर्हि द्वितीयः सिंहमेव स्वशृङ्गेन सिद्ध भवेत्. अतः सा तौ प्रहर्तुम् असमर्थः आसीत्.
गुड्. बट् नौ ऐ एम् गोयिङ्ग् टु रीड् अगेन् दिस् पेसेज् वित् डिसाल्विङ्ग् सन्धि. कस्मिंश्चित् वने, आक्चुलि कस्मिन् प्लस् चित् प्लस् वने, कस्मिंश्चित् वने द्वौ वृषभौ आसन् हरितानि शष्पाणि भक्षयन्तौ तौ परां पुष्टिम् अगच्छताम्. तौ परस्परं सुहृदौ आस्ताम्, सः एव च अतिष्ठताम्. तस्मिन् एव वने एकः सिंहः अपि आसीत्, सः सदैव एतौ वृषभौ दृष्ट्वा चिन्तयति स्म, यदि अहम् एतयोः मांसं लभेय तर्हि सुखं भवेत्, सानन्दं च मम कालं गच्छेत्. परं सिंहः एकम् अपि वृषभं मारयितुं समर्थः न आसीत्, यतः तौ सदैव सः एव अतिष्ठता. यदि कदाचित् सिंहः एकं प्रहर्तुं कामयेत् तर्हि द्वितीयः सिंहम् एव स्वशृङ्गेण विदारयितुं सिद्धः भवेत्. अतः सः तौ प्रहर्तुम् असमर्थः आसीत्. सो इन्दु भगिनी वेरि गुड् ट्राय् बट् ट्रै टु डिसाल्व् फर् दि एण्ड् देन् रीड् द पेसेज्. So, now, I have already told you Kasmiushchit Vane. Now tell me, Pushtima Gacchata. What is Pushtima Gacchata? Dissolve this. Pushtima Gacchata.
Pushtim Yoga Agacchata.
Agacchata. Very good. Pushtim Yoga Agacchata. अधुना वदतु
भगिनी वन् मोर् टैम् कश्चिन् कश्चिन् कस्मिंश्चित् दिने कस्मिंश्चित् वने
नौ यु केन् स्टे हियर् दिस् इस् वेरि गुड् फाण्ट् कोकिला दिस् फाण्ट् इस् वेरि पर्फेक्ट् just now Sanjeev Mohdaya asked about that show. So we have to write like this only. See here. Kasmin. This Visarga, sorry, this Anuswar is na. So Kasmin Chid. Now this sha will not be there. Chit. Chit. Tah lagta. And one. Kat means plus chit plus one. Now pushtim plus agachata. Adhuna Divya Bhagini vadatu suruta vasta.
Suruta vasta. सुहृता योग अवास्ता
न न सी दट् दा एण्ड् टेक् औट् वोवेल्
सुहृदौ सुहृदौ आस्ताम्
नौ विच् रूल् इस् हियर् अयाति सन्धि सुहृतौ प्लस् आस्ताम् औ प्लस् आ दट् मीन्स् औ विल् गो एण्ड् आव् विल् टेक् प्लेस् सो सुहृद् हलन्त आव् सुहृदाव् एण्ड् आस्ताम् ब विल् कम्प्लीट् वित् आ Is it clear? Otherwise, I will write.
Yeah, can you please write, Bhagini?
Yeah. Surudau plus Asta. Take it. सुहृदौ प्लस् आस्ताम् अधुना पश्यतु अत्र औ अस्ति औ प्लस् आ Au plus A. That means in place of Au, Au will come and plus A. Then here only you can see A, Wa. Now here when we are taking out au
which is the remaining part, that is su hru surhud surhud plus a va and ta. Wow, hi, because this a, because of this a, why is there? So now plus ta. Ta. So now you can see here surut plus ava. Su ru da wa. Plus ta. Ta. Got this? Find out second word first, then you can split that second word, and then you can think which is the first word. So you will get some clue. See here, Assam. So Assam is there. And what is surudau? Dau means au is there. Why au is there? That means au is there. Surudau plus asa. So you can think like this. So clear to all of you?
Ayadi Sandhi, right?
Yes, Ayadi Sandhi. Now, Lakshmi Bhagini Sahaiva.
Sa, Sahaiva. Saha, Yoga, Eva. Sahaiva.
Sahaiva. A plus A is equal to I.
I.
Aduna Cha Tishthata. Sandhya Bhagini Vadatu.
Dhan Bhagini. Cha yoga atishtata.
Cha yoga atishtata. If you are if there is cha, that means something is there, because cha is the word. So atishtata. Adhuna pashyatu tasmin naiva. We have not yet seen this We have not yet seen this one. Tasmin neva. So neva. Check out second word.
Eva.
Check out second word.
Eva.
Eva. Eva. So na halanta is there. So it must be dropped out. And the
tasmin
part.
Eva.
Tasmin eva. Tasmin plus eva. We have not yet seen this one. Aduna pashyatu.
I was wondering why this is like tasmin eva, half na and then na. And why not
yes.
Tasmin eva?
Yes. So just now I said we have not yet seen this one. This is now Vyanjana Sandhi.
Oh.
And actual in Vyanjana Sandhi, I think 13 or 14 rules are there. So Swara Sandhi and Visarga Sandhi must be clear. And then only we will go to see, we will see that one. Vyanjana Sandhi. ओके सञ्जीव महोदय सिंहोऽपि आसीत्
सिंहः अपि आसीत्
यस् करेक्ट् सिंहः अपि आसीत् अवग्रहः अस्ति देट् मीन्स् ओ वि हेव् टु रिमूव् देट् ओ एण्ड् पुट् विसर्ग सो सिंहः एण्ड् इन् प्लेस् आफ् अवग्रह अ मस्ट् बि देयर् सो अपि आसीत् देट् लास्ट् आसीत् देट् मीन्स् लास्ट् वर्ड् इस् आसीत् सो य इस् हलन्त वै य इस् हलन्त बिकास् ईस् देर् यण् सन्धि अस्ति तत्र अपि प्लस् आसीत् अप्यास्ति गुड् अधुना शीला भगिनी सदैवैतौ
सदैव प्लस् एतौ
यस् करेक्ट् सदैव प्लस् एतौ सदैवैतौ सदैव
प्लस् ए विकल्प ऐ
ऐ करेक्ट् करेक्ट् अधुना पश्यतु यद्यहमेतयोः सुषमा भगिनी टेक् औट् लास्ट् वर्ड् मेतयोः
एतयोः
यस् देट् मीन्स् म हलन्त इस् देर्
अहम्
अधुना फैण्ड् औट् फस्ट् वर्ड् त्री वर्ड्
इट् इस् यदि अहम् एतयोः
यत् यदि प्लस् अहं प्लस् एतयोः यदि इ अस्ति चेत् य आगच्छति यण् सन्धि मध्ये तर्हि यदि यद्य अस्ति देट् मीन्स् यण् सन्धि अस्ति 100% सो इन् प्लेस् आफ् य पुट् इकार फस्ट् इ सो यदि एण्ड् टेक् औट् वावेल् अहं वेरि गुड् एकमपि जीन् महोदय
एकं अलन्त योग अपि
यस् करेक्ट् एकं प्लस् अपि वेरि सिम्पल् सन् ज्योति भगिनी सी दिस् वर्ड् सहैव तिष्ठताम्
प्लस् एव सहैव हियर् अ प्लस् इ दट् इस् वृद्धिसन्धि अतिष्ठत तिष्ठताम् एव प्लस् अतिष्ठता अतिष्ठताम्
सः
हियर् इट् इस्
सः योग एव प्लस्
प्लस् अतिष्ठता
सो
एव प्लस् अतिष्ठता
सिंहमेव सुशीला भगिनी सुशीला भगिनी
सिंहम् एव
अधुना पश्यतु लास्ट् वन् प्रहर्तुं समर्थः सुशीला भगिनी कम्प्लीट् करोतु सुशीला भगिनी वदतु
प्रहर्तुम् असमर्थः
न प्लस् आसीत् चासीत् च प्लस् आसीत् सो दिस् इस् वेरि गुड् स्टोरि I'm going to give you next part. for next week.
Bhagini, what is the meaning of swashrungena?
Swashrungena. Swashrungena. Shrungam means, do you know what is shrungam?
Horns.
Horns, correct. Horns. Vrishabham
can use its shrunga to attack it.
I can't hear you properly. Vrishabham means
can attack with shrunga. Is that that is why?
No, Vrishabham.
I think Indu Gupta, Lakshmi Bhagini and Sandhya Bhagini. Kripa mute madhya tishtato. Thank you. Aduna vadatu Asha Bhagini. What is Vrishabha? Who is Vrishabha?
Bull.
Bull. How many bulls are there?
Two
bulls. So two bulls are there. Haritani Shashpani Bhakshayantau Tau Param Pushtim Agachata. That means they both
they were eating good grass, green grass.
Green and tender grass. And they both become
healthy.
Well nourished. Healthy. Yes. Tau parasparam surudau asam saha eva chatishtata. Divya Bhagini. Tau parasparam surudau asam. Surudha means friend.
Both of them, tau parasparam. Both of them live together as friends.
Yes, yes. Tasmin eva vane eka simha api asit. Vadatu Divya Bhagini.
In that forest, there was one lion. Also, api asit.
Also. Indu Bhagini. Saha tadaiva etau vrishabhau drushtva chintayati sma. Sma means you can use to.
Bhagini, would it be the same as Achintaya?
Yes. Achintaya. Chintayati sma means Achintaya. Remove that sma and write Achintaya.
But Bhagini, sma means they were continuously thinking that it was happening continuous past tense, right?
एतौ वृषभौ दृष्ट्वा चिन्तयति स्म यद्य अहम् एतयो मासं लभेय तर्हि सुखं भवेत् इफ् इफ् ही केन् गेट् दि the flesh of these Vrishabha, he used to think that if he could get their mass, then he would be very happy, or he will be satisfied, or sukham bhavet.
Yes.
Sanandam chamuna kalam chet. By that I will have some time that will be very happy.
लक्ष्मी भगिनी वदतु परं सिंहः एकमपि वृषभं मारयितुं समर्थः नास्ति.
ओके, परं सिंहः एकमपि वृषभं मारयितुं समर्थः नास्ति. सो the Simham killed the Vrishabham waiting for the time to kill the Vrishabha.
Devak is capable of.
Param means but.
But. Simham
Param means but.
Yeah. But Simham.
The lion was not able to kill.
Yeah. Simham.
Even one of one bull.
One Vrishabha itself it could not kill. Not yataka. यतः तौ तदैव सहैव
अतिष्ठताम् बिकास् यतः मीन्स् बिकास्
तौ सदा
बोत् तदैव मीन्स् आल् देस्
Sahaiva Tishtatam. So, what is the Sahaiva Tishtatam means, Bhagini?
Saha means together. That means, we can say, because they always stood together.
Oh, they are always together. Those two bowls are together. Okay.
Okay. Sandhya Bhagini? Last two sentences.
यदि कदाचित् सिंहः एकं प्रहर्तुं कामयेत् तर्हि द्वितीयः सिंहमेव स्वशृङ्गेन विदारयितुं सिद्ध भवेत्
वट् इस् सन्धि इस् सिद्ध भवेत् सी दट् सन्धि एण्ड् टेल् मी आन्सर्
सिद्धः भवेत्
यस् करेक्ट् सिद्धः भवेत् लोपसन्धि विसर्गस्य लोप
ओके
हा बिकास् आफ् देट् मृदु व्यञ्जन सिद्धः भवेत् हा नौ ट्रान्स्लेशन्
when the lion managed to strike one
attack
one then the second one I'm not clear about that word swashrungena bhagini
that is wrong
तृतीया विभक्ति आफ् दशृङ्गे विद् अटाक् द लायन् अटाक् वन् बुल् देन् दि अदर् अटाक् द लायन् वित् हिस् हार्न्
करेक्ट् विदारयतु मीन्स् टु टियर् द लायन् अतः सः तौ प्रहर्तुम् असमर्थः आसीत्
So the lion was unable to kill either of them. Tau is kill both of them.
Yes, kill them. The story is very nice.
Unity.
I'm going to give you as a passage next part, next for the next week. So we will still is there any problem you feel in Swara Sandhi and Visarga Sandhi?
No, Bhagini.
So first
it is getting easier little by little.
So practice is necessary. So from all of you, if one thinks that yes, this is hard to apply, then I will repeat all the rules.
Bhagini. Bhagini. Mama, gata saptahe. अस्ति पाठं गृहपाठम् अस्ति ते प्रेषयति किम्
आम् अहं प्रेषयामि. अस्तु
धन्यवादः.
एनी डाउट अस्तु इन दर एनी डाउट अबाउट स्वर संधि एंड विसर्ग संधि जिन महोदय संजीव महोदय एंड ऑल ऑफ मे आई स्टार्ट विद व्यंजन संधि
आम आम
आम
आम
यस अस्तु तर्हि प्रारंभं कुर्मः. Yes. Now we know swara sandhi, swavarna dirgha sandhi, guna sandhi, vrutti sandhi, niyana sandhi, ayati sandhi. And for visarga sandhi, there is uttvam, sattvam, vrutvam and rupam. Now we will come again with this chart. It was not complete, now it is complete. So see, vyanjana sandhi, what is swara sandhi? Swara plus swara and the product is swara sandhi. What is visarga sandhi? Swara plus visarga plus swara or vyanjana. That is visarga sandhi. And what about vyanjanam? At the end first word, vyanjana must be there. And following letter must be swara or vyanjana. That is vyanjana sandhi. So please see this chart again. This is very important for vyanjana sandhi. There are five groups: ka group, cha group, ta group, ta group, and pa group. In every group, five letters are there, and first two letters are katora vyanjanami, and last three letters are dru vyanjanami. These 25 letters are Vargiya Vyanjanani. There are 5 Varga, Khu, Chu, Tu, Tu, Khu. That means Ka, Cha, Ta, Ta, Pa. And other than these 25 letters, Sha, Sha and Sa are Kathora Vyanjanani. And Ya, Ra, La, Va, Ha are Mrutu Vyanjanani. Now this is clear. Mrutu Vyanjanam and Kathora Vyanjanam. Actually, sha, sha, sa and ha, Ushmana. But ha is Mrutu Vyanjanam and sha, sha, sa is Kathora. They are Kathora Vyanjanam. Clear? Ambuano. First Vyanjana Sandhi is Shchuttuva Sandhi. See, Shchuttuva Sandhi. What is Shchu? Shchu means Sh and Chu means Cha Varga. That means Cha, Cha, Ja, Dha, Ya, all five letters. Sha and all five letters, that's Cha, Cha, Ja, Ja, Ya. That means Shchu. So, what is the first sandhi? If Sakara is there at the end of first word and Shakara or Chavargasya, Chavargasya Kopi Varana Hasti, then Sakarasya Shakaraha Bhavati. Sakarasya Shakaraha Bhavati. Changes must be there in Sandhi. Here it comes in place of first word, last letter. Most of the time. सकार प्लस शकार अथवा च वर्ग च वर्ग देन दिस स विल चेंज इनटू श सो स इज इक्वल टू श इज द फर्स्ट रूल ऑफ शुत्व संधि सी हियर शिशु प्लस शेते सी स followed by sh. Then this sh will change into sh and the product is shishushete. Shishushete, four sh are there. So pronounce properly. Shishushete. Shete means lip. Lip. She is the root. शेते प्रथमपुरुष प्रथमपुरुषस्य एकवचनस्य रूपं शेते बालकः बालक स्लिप् शिशुशेते अधुना पश्यतु मनः योगचञ्चलं स एण्ड् च वर्गलेखः So, must be shav. So, manas chanchala. Ramas chhatra. So, followed by ch. That is from ch word. So, so change into shav. And Ramas chhatra. Ramas chhatra. So, first condition is, if sakara is present at the end of the first word and following letter is shakara or sh or any letter from cha varga, then sa will change into sh. It is clear? अग्रे गच्छामः अत्र पश्यतु
अञ्जलि भगिनी केन् यु जस्ट् रिपीट् हौ टु प्रोनौन्स् मनस् मनस् चलम्
मनस् चञ्चलम्
मनस्
चञ्चलम्
मनस् चञ्चलम्
भगिनी कुर्योल् रामः छात्रः यस्
कुर्योल् कैण्ड्लि रिप्लेस् द नेम् आफ् शिशुक्षेपे
देट् मीन्स् बालकः निद्राति
निद्रति ओके
निद्राति निद्रा
निद्रति ओ धन्यवादः
अस्तु अत्र पश्यतु सेकेण्ड् कण्डिशन् आफ् श्रुत्वसन् वाट् इस् देर् इन् फस्ट् स्लैड् स एण्ड् स इस् देर् एण्ड् फालोयिङ्ग् लेटर् इस् चकार आफ् चकार वर्ग च वर्ग एण्ड् नौ वाट् इस् देर् ta varga and cha varga. Here, in place of ta, now ta varga is there. And here, shakara or cha varga is there. Cha varga is present. Now here, only cha varga is there. Ta varga followed by cha varga. Then, ta varga sya cha varga ha bhavati. Now see, tavarge panchavarnaha santi, chavarge api panchavarnaha santi. Then what will be the product? See here, yatha kramam sankhyam anudesha, kramena bhavati, ta change into cha, tha, cha, ध ज ध झ न य दैट मीन्स इफ सवर्ग से फर्स्ट लेटर इज देयर देन यू हैव टू चेंज इट इन टू च वर्ग से फर्स्ट लेटर फर्स्ट लेटर ऑफ च वर्ग सेकंड लेटर अस्ति चेत् द्वितीयः वर्णः अस्ति चेत् द्वितीयवर्णः स्वीकरोतु तृतीयवर्णः अस्ति चेत् च वर्गस्य तृतीयवर्णः स्वीकरोतु चतुर्थः वर्णः अस्ति चेत् च वर्गस्य चतुर्थवर्णः स्वीकरोतु पञ्चमः वर्णः अस्ति चेत् च वर्गस्य पञ्चमः वर्णः स्वीकरोतु लैक् देट् एण्ड् सकार विल् always change into shakar. So, ha is equal to sha, ha is equal to cha, ha is equal to cha, da is equal to ja, dha is equal to cha, na is equal to nya. This changes in sentence. So, now see here. First of all, I must say, what I'm telling you, probably I am missing some steps. Why? Because we have not yet seen that rule. And that's why I am here only, Satchita. Two more steps I have missed here. Because we have not yet seen. So, Sat plus Chit, in place of the, which letter will come? So, well, the So, cha must be there. So, cha, chik. Sa, chik. So, ta is equal to cha. Surud, jagama. Da. Da is a varga se third letter. Ta, tha, da. So, we have to take third letter in place of the. See, cha, cha, za. Ja is there. So we have to take ja. Suruj, jagama. Suruj, jagama. Da is equal to ja. Gunin, janatu. Now this is fifth letter of ta varga. So we have to take fifth letter of cha varga. Nya. Gunin janatu. Gunin janatu. Na is equal to ya. Got it?
And
if ta varga is there, if ta varga is there and following letter is from cha varga, then we have to change that ta varga by taking which we have to find out the krama of that letter and we have to apply same krama for chavar. So it is clear. Now see, in one word or so we have to situation is like this, then we have to make sandhi in one word also. Now, first of all, I have to say, see here, tavarga plus chavarga. Tavarga plus chavarga is there. Now, see here, chavarga is equal to tavarga. Why this such type of condition is there? See here. Tavarga plus chavarga and here chavarga plus tavarga. Why this one? Can anyone guess?
It is reverse, like purva says.
Yes, it is reverse. Why? So we have to see that specific sutra. See, the sutra is stoho. Why I am telling you, I should not tell you sutra and all these things. But you should know that there is change like this. So in Paniniya grammar, actually we know all the karaka vibhaktis and all meanings of that of those specific specific vibhakti. That means vibhakti we are using for karta, dvitiya vibhakti for karma and meaning is to, tritiya vibhakti by and with, chaturthi vibhakti for, panchami vibhakti from, shashti vibhakti of, saptami vibhakti in on among, and sambodhana vibhakti to call someone. These are meanings of the vibhakti, but in Paniniya grammar there the meanings are different of some specific vibhakti. So see here, stoho, this is basic word is stu, and stoho is shashti vibhakti, just like bhanu, and shashti vibhakti is bhanu. So stu is there. तर्हि प्रथमा षष्ठी विभक्ति स्तोः षष्ठी विभक्ति देयर वी नो द मीनिंग इज मीनिंग ऑफ षष्ठी विभक्ति इज ऑफ हियर षष्ठी विभक्ति षष्ठी विभक्ति इज प्रेजेंट देन व्हाट एवर चेंजेस आर गोइंग टू बी हैपन दे आर दे विल विल हैपन here in the place of shashti vibhakti. So karyam putra bhakti shashti vibhakti he sthane eva karyam, which word is in prathama vibhakti, that is adesh. What should be there, what should be karyam putra bhavati shashti vibhakti he स्थाने भवति, परन्तु किं कार्यं भवति, वाट् एवर् फस्ट् प्रथमा विभक्ति इस् देर् देट् इस् द कार्यं देर् इट् शुड् बि हेपन् इन् प्लेस् आफ् षष्ठी विभक्ति. नौ वाट् इस् स्टुना, स्टु इस् द वर्ड् देट् इस् भानु, देट् मीन्स् भानु इस् देर् एण्ड् भानुना इस् द tritiya vibhakti, that means chuna is the tritiya vibhakti. When tritiya vibhakti is present in the sutra, that means karya, that words shabdasya shabdat purvam api bhavati pare api bhavati. Shabdasya purvam api bhavati, shabdasya pare api bhavati. What is the meaning of tritiya vibhakti? Whatever changes are going to be made, that changes can be done before tritiya vibhakti and also after tritiya vibhakti. And that's why this changes. If we are saying here, here ta varga plus cha varga, and here cha varga plus ta varga, whatever it may be, change must be in place of ta varga, because the rule is sto ho, takara and ta varga must be there, and changes must be done in place of sto. Stu, stu means sa and tu varga. So in place of sa, in place of sa, sha will come. Stu is the changes. Stu is the, we have to change this, we have to follow this adesha. Stu in place of stu. Stu means sakara and tavarga, and changes shakara and chavarga. सो स्टू कुत्रापि भवेत् शब्दस्य पूर्वा शब्दात् पूर्वमपि भवेत् शब्दात् परे अपि भवेत् कुत्रापि भवेत् तर्हि चेञ्जस् मस्ट् बि देर् इन् प्लेस् आफ् स वर्ग सो च वर्ग त वर्ग प्लस् च वर्ग इन् प्लेस् आफ् त वर्ग च वर्ग विल् कम् एण्ड् हियर् च वर्ग प्लस् त वर्ग च वर्ग आगच्छति परन्तु कुत्र त वर्गस्य स्थाने इट् इस् क्लियर् हा अधुना पश्यतु यज् प्लस् नः
ज प्लस् ञ इस् नाट् अ सन्धि रूल् रैट् इट् इस् जस्ट् अ लेटर् रूल्
Yes, I am coming there. See here, yaj plus naha. Now, ja is cha vargasya varnaha and na means ta vargasya varnaha. So, ja varga followed by ta varga, then changes are done in place of वर्ग सो नः मीन्स् न प्लस् अह न विल् चे न विल् टेक् प्लेस् न विल् चेञ्ज् एण्ड् य विल् कम् इन् प्लेस् आफ् न सो लैक् दिस् ज एण्ड् य मीन्स् य एण्ड् द वर्ड् इस् यज्ञः Is it clear?
Yes,
Bhagini. Bhagini, I did not get it. Ja plus ya is ya.
Yes.
How did that ya come?
Ya. Ya came in place of na.
No, not that. Down the second last line. Yes, right there. Ya, how did that come?
See, this ja and this ya will add, becomes ya.
Okay, ja and ya becomes ya. Okay.
And this is with Halan Samar.
It's not a Sandhi rule, right, Bhagini? It's just a general rule.
No, this is Sandhi rule.
So ja plus ya is ya is
always Sandhi. When I'm typing, I want nya, then I have to write, I have to press that ja and na first.
Oh.
See here. Huh. This is the rule. Ya, ja, nya, and a. See here. This is Sandhi rule.
Is this the reason why some people pronounce it as Yajna?
Yes. Tajnya. They are not pronouncing Tajnyaha. They are pronouncing Tajnyaha. And this is actually the perfect pronunciation. Tajnyaha.
Okay.
In India, pronunciation are different in different places. In Uttara Bharata, they are pronouncing Gya. Yagya. And Yagya. All Hindi medium schools are teaching like this only, Yagya. But in Maharashtra, this is Yajnya. Jnaneshwar. Jnanyaya. Jnaneshwar. very much difference is there in pronunciation. So because of that chuna, because of tritiya vibhakti, their place can be changed, but adesh must be followed in place of avarga only or sakara. Now see this. Because of this chuna, we have seen here sa plus sha, sakara plus shakara or chavarga. So we have seen this sakara plus shakara or chavarga, sa will change into sha. We have seen also avarga plus chavarga, chavarga will take place in place of avarga. If chavarga plus avarga is there, then chavarga will take place of avarga. Now, because of tritiya vibhakti, sa plus sha is there. So what will happen about sha plus sa? Is it applicable? Yes, it is applicable. But some other sandhi rules come there, and we are not getting final product, and that's why we are not going to see this one now. Now we have seen tavarga plus chavarga, chavarga plus tavarga, and sa with sha. But what about stu asti chet sa asti, tarhi sa api asti tavarga plus sha. What is that? Shavarga plus tavarga. Shavarga plus tavarga. So stutva nishedha asti. Tatra stutva nishedha asti. No stutva. In play, when the condition is shakara plus tavarga. No stutva. See here. Prash. I have to write it halanta. Sha plus na. It is prashna, and the sutra is shat. Where Panini has told us shutva nishedha, the sutra is shat. Then tavarga plus sha. Sha plus tavarga shutva nishedha. And what about tavarga plus sha? There are also some sandhi rules come, and we can't get final product in this stage. So we are not going to see that sha plus sha and tavarga plus sha. Here stutva nishedha asti. एक्साम्पल् अस्ति प्रश् प्रश्न प्रश्नः आक्चुलि वि आर् प्रोनौन्सिङ्ग् प्रश्नः नाट् प्रश्नः वै ऐ डोण्ट् नो बट् वि आल्वेस् से प्रश्नः नाट् प्रश्नः बट् द एक्साक्ट् वर्ड् इस् प्रश्नः वि हाव् सीन् sakara plus shakara or sakara plus chavarga. So sha will be there in place of sa. We have already seen tavarga plus chavarga. Chavarga will take place of tavarga, and chavarga plus tavarga asti chet chavarga agachati tavargasya sthane. These three we have seen. Once we have seen there is stutva nishedha, and these two we are not going to see now. This is first sandhi rule, stutva sandhi of vyanjana sandhi. Any doubt about this stutva sandhi?
Yes, Anjali Bhagini, the shavarga plus tavarga, the and then the
not
example
shavarga,
is
only shakara. only shakar.
Okay.
Not shavarga, shakar.
Shakara plus tavarga. The example is prasha yoga naha. Why there is no example with prasha yoga ta? Another word with ta. Why is it with na? Na. Na varga.
Ah, na. Na is from ta varga. Ta, ta,
ah,
ta,
okay.
Na.
Okay, okay.
Ah.
No, I get it. Dhanyavada ham bhagini.
Any other doubt? Shrutva sandhi. It is clear? Is it clear?
I think this this chutta sandhi, can you repeat next class again? Not very clear.
Please repeat. I can't hear you properly.
Chutta sandhi, can you repeat in the next class?
Yes. If you have doubt, ask me any time in our WhatsApp group, and I am going to repeat this Chutva Sandhi, because next one is Chutva Sandhi.
Okay.
Stuna Stuhu.
Bhagine?
Haan. Vadatu?
Yeah. Shafla Yoga plus Sakshaha Shutva Nishedaha Ase. Prasha plus na, so it is always will be in the na. For tavargaha, it will be always come as na. Prasha plus naha.
It is from
prasha.
This is one example. And na is from tavarga, and that's why I took this. I chose this one. Prash plus naha. Shakara pai. What happened?
Bhagini, can you please give us some homework so that we can practice this particular sandhi?
Yes, I will give you. Now this time I am going to give you Bhagini.
One time you sent a photo of all this from the book.
Yes, it was very helpful,
but I did not see the one we read. We have a copy of that picture.
Okay, I will send it again.
Yeah, I have the I print it out, but I'm checking right now. The today's rule and last week rules is not there in that picture.
Okay, I'll just send it again.
Okay, Bhagini, that picture was very helpful from the book.
Yes.
And which
I
rule
think
was that,
you are
Bhagini?
Not. I think you, I'm out of class from one device. One device is there.
Yeah, I see that. I see that.
Okay. We will stop here. It is already 9:35. अस्तु अग्रिमे सप्ताहे सोमवासरे पुनर्मिलामः
पुनर्मिलामः भगिनी धन्यवादः
पुनर्मिलामः कोऽपि प्रार्थना वदति वा लक्ष्मी भगिनी कृपया वदतु
सर्वे भवन्तु सर्वे भद्राणि पश्यन्तु आकर्षस्य Shanti, 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 Hari Om, Hari Guru Namah, Hari Om.
Asu. पुनर्मिलामः अग्रिमे सप्ताहे अग्रिमे सोमवासरे अष्टवादने पुनर्मिलामः
आं धन्यवादः
धन्यवादः धन्यवादः